राम गीता जी का पाठ पहला अध्याय श्लोक 38 से 47 तक। राम
वसुदेव सुतं कंसजानुरमार्जनम् देवकी करमानन्दम् कृष्णं वन्दे जगद्गुरुम् यद्यप्येते न पश्यन्ति दूरोपहतचेतसः पुरक्षरपि सन्तोषम् नेत्रद्रोहे च पातकम् कथं न ज्ञेयमस्माभिः पापापस्मान्निवासितम् पुरक्षरपि सन्तोषम् प्रपश्यद्भिर्जनार्दन कुलाक्षरे प्रणश्यन्ति कुलधर्मा सनातना धर्मे नष्टे कुलं कृष्ण मधर्मो विभवत्युत अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्य श्रीषु दुष्टासु वाष्णेय जायते वर्णशङ्कर शङ्करो नरकायैव कुलज्ञानां कुलस्य च वसन्ति पितरो येषां दुःखपिण्डोदकक्रिया दोषैरेतैः कुलज्ञानां वर्णशङ्करकारकैः उत्साद्यन्ते जातिधर्मा कुलधर्माश्च शाश्वता उत्सान्न कुलधर्माणां मनुष्याणां जनार्दन नरके नियतं वासो भवतीत्यनुशुश्रुम अहो बत महत्पापं कर्तुं व्यवसिता वयम् यद्राज्यसुखलोभेन शान्तुं स्वजनमोजता यदि मामप्रतीकार मशस्त्रं शस्त्रपाणय धातुराष्ट्रारणे हन्यो स्तने क्षेमपरं भवेत् एवमुक्त्वा अर्जुनः सङ्ख्ये रथोपस्थ उपाविशत् विसृज्य सशरं शापं शोकसंविघ्नमानस
वसुदेवसुतं देवकी करमानन्दं कृष्णं वन्दे जगद्गुरुं कृष्णं वन्दे जगद्गुरुं
हरे शरणम् 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 Hare Sharanam, 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 Hare Sharanam.